इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्य वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः प्रावोचत् यत् देशस्य समग्र विकासाय जनजातीय जनानां सक्रिय सहभागित्वम् आवश्यकमस्ति। प्रधानमन्त्री नरेन्द्र मोदी श्वः प्रातः 11 वादने मन की बात इत्यस्मिन् कार्यक्रमे देशवासिभिः साकं विचारान् विनिमयीकरिष्यति। स्पेन देशीयः राष्ट्रपतिः पेड्रो सांचेज़ इत्येषः श्वः आरभ्य भारत यात्रायाम् आयाति। भारत ऋतु विज्ञान विभागेन ओडिशा राज्यस्य विभिन्नेषु भागेषु अतिवृष्टिः अनुमानिता, तत्र साहाय्य कार्याणि प्रचलन्ति। अपि च पुणे नगरे क्रिकेट निकषस्पर्धायाः न्यूजीलैंड दलेन भारतं पराभूय तीसृणां क्रिकेट निकषस्पर्धानां श्रृंखला विजिता। इदानीं वार्ताः विस्तरेण। राष्ट्रपति पदासीना द्रौपदी मुर्मुः प्रोक्तवती यत् आदिवासिनः जनाः प्राकृतिक जीवन शैल्या संचित ज्ञानस्य संग्रहाः सन्ति इति। भारतीय प्रौद्योगिकी संस्थानस्य IIT इत्याख्यस्य भिलाई इत्येतस्य दीक्षांत समारोहाय उपस्थितान् जनान् सम्बोधयन्ती राष्ट्रपतिः मुर्मुः कथितवती यत् जनजातीय जनानां जीवन शैल्यः देशस्य सतत विकासाय महत्वपूर्ण योगदानं दातुं शक्यते। अनया कथितं यत् देशस्य सर्वविध विकासः तदा सम्भाव्यते यदा विकास प्रक्रियायां आदिवासी जनानां सक्रिय सहभागिता स्याद् इति। समारोहावधौ राष्ट्रपतिना 7 छात्रेभ्यः स्वर्णपदकं दत्तम्। एतस्मिन् समारोहे छत्तीसगढस्य राज्यपालः रामेन्डेका इत्यसौ मुख्यमन्त्री विष्णुदेवसाई च उपस्थितौ आस्ताम्। प्रधानमन्त्री नरेन्द्र मोदी श्वः रविवासरे मन की बात इत्यस्मिन् कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं 85 संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी, दूरदर्शन, प्रधानमन्त्री कार्यालय, सूचना प्रसारण मन्त्रालय इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते इति। प्रधानमन्त्रिणः सम्बोधनानन्तरम् अनुक्षणम् अयं कार्यक्रमः क्षेत्रीयभाषास्वपि श्रोतुं शक्यते। क्षेत्रीयभाषासु अस्य पुनः प्रसारणं रात्रौ 8 वादने भविता। मुख्य न्यायाधीशः DY चन्द्रचूडः उक्तवान् यत् न्यायपालिकां समेत्य सर्वेषु क्षेत्रेषु महिलानाम् अधिकाधिकं सहभागिता भवितव्या इति। आकाशवाण्या सह विशिष्ट संवादे एकस्मिन् असौ उक्तवान् यत् अनेन महिलानां पक्षाणां सूचना निर्णयाश्च सरलाः भविष्यन्ति। आकाशवाण्या सह स्वीय प्रारम्भिके एव संवादे असौ निगदितवान् यत् सः बाल्यादेव आकाशवाणीतः प्रसारितानां हिन्दी आंग्ल संस्कृत वार्तानां श्रवणं करोति स्म।
Famous voice was that of Devkinandan Pandey. He would say, "Yeah, Akashvani hai. Ab aap samachar suniye Devkinandan Pandey se." And then you had this very delicate voice of Pamela Singh and Lothika Ratnam. This was All India Radio. The news read by Lothika Ratnam. And then I would listen to the Sanskrit news every morning with my parents. You know, "Te yam Akashvani samprati varta shuyantam."
स्पेन देशस्य राष्ट्रपतिः पेड्रो सांचेज इत्यसौ श्वः आरभ्य अस्य मासस्य 29 दिनांकं यावत् भारतस्य आधिकारिक यात्रायाम् आयाति। तेन सह तस्य भार्या बेगोना गोमेज इत्यसौ च आगच्छति। विदेश मन्त्रालयेन एकस्मिन् प्रदत्ते वक्तव्ये कथितं यत् श्री सांचेज स्वस्य इयं यात्रा प्रथमा भारतयात्रा भविष्यति। इतः पूर्वं प्रधानमन्त्री नरेन्द्र मोदी, राष्ट्रपतिः सांचेजः च बहुपक्षीयोपवेशनेषु अनेकवारं मिलितवन्तौ। यात्राप्रवासे राष्ट्रपतिः सांचेजः प्रधानमन्त्रिणा नरेन्द्र मोदिना साकं मण्डलस्तरीयां वार्तां समाचरिष्यति। उभौ नेतारौ वडोदरायां C-95 इत्याख्यस्य विमानस्य स्थापित संयन्त्रस्य उद्घाटनं विधास्यतः। एतद्धि विमाननक्षेत्रे मेक इन इण्डिया इत्यस्य उपक्रमस्य अन्तर्गतं भारतेन विहितः प्रमुखः पदक्षेपो वर्तते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य 28 दिनांके गुजरात राज्यं प्रति याति। तत्र असौ विभिन्न विकासात्मक परियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति। यात्रावधौ श्रीमोदी स्पेन देशीय राष्ट्रपतिः पेड्रो सांचेज इत्यसौ च टाटा एडवांस्ड सिस्टम लिमिटेड परिसरे सी 95-200 इत्येतस्य विमानस्य निर्माणाय टाटा विमान परिसरस्य उद्घाटनं करिष्यतः। तदनु प्रधानमन्त्री श्रीमोदी अमरेली स्थले भारत माता सरोवरस्य उद्घाटनं अथ च 900+ कोटि रूप्यकाणां परियोजनानां आधारशिलामपि स्थापयिष्यति। अपि च जलापूर्ति विभागस्य 700+ रूप्यकाणां विकास परियोजनाः अपि उद्घाटयिष्यति। प्रधानमन्त्री पर्यटन सम्बद्धानां पदक्षेपाणाम् आधारशिलां स्थापयिष्यति, येषु पोरबन्दर जनपदस्य मोकरसागरे कर्ली रिचार्ज जलाशयस्य विश्वस्तरे पारितान्त्रिक पर्यटनत्वेन संशोधनं सम्मिलितमस्ति। ओडिशा राज्ये तटीय जनपदानां गभीरतया चक्रवात प्रभावितेषु क्षेत्रेषु सहायोद्धार कार्याणि पुनर्निर्माण कार्याणि च विधीयन्ते, यतोहि अनेन दाना चक्रवातेन विद्युत स्तम्भाः, वृक्षाः, गृहाणि च क्षतिग्रस्तानि जातानि। अवधेयं वर्तते यत् गभीर चक्रवातः दाना इति विगतयोः शुक्र गुरुवासरयोः मध्यरात्रौ ओडिशा तटस्य भीतरकनिका राष्ट्रियोद्यान धामरा इत्यनयोः मध्ये प्रविष्टः। भारतीय ऋतुविज्ञान विभागेन सूचितं यत् अयं चक्रवातः साम्प्रतं ओडिशायाः उत्तरभागेषु निम्न भारयुतेषु क्षेत्रेषु संकुचितः जातः। ओडिशायाः एव भद्रक, केन्द्रपाड़ा, बालासोर, जाजपुर, मयूरभंज जनपदेषु चक्रवातेन अतिवृष्टिः जाता। अत्रावधौ तत्र जवीयगत्या पुनर्निर्माणस्य कार्याणि प्रचलन्ति। तत्रैव राज्यप्रशासनेन घोषितं यत् क्षतिग्रस्तानि गृहाणि निर्मीयन्ते, तावज्जनेभ्यः पुनर्निर्मितानि नवीनानि गृहाणि प्रदास्यन्ते। झारखण्ड विधानसभा निर्वाचनस्य प्रथमचरणाय नामांकन प्रक्रिया ह्यः सम्पन्ना। एतस्मिन् प्रथमे चरणे राज्यस्य 43 नैर्वाचनिक क्षेत्रेभ्यः नवम्बर मासस्य 13 दिनांके मतदानं भविष्यति। नामांकन पत्राणाम् अनुसन्धेय कार्यम् अस्य मासस्य 28 दिनांके अथ च नामांकन प्रत्यावर्तनं 30 दिनांकं यावत् प्रत्याशिनः कर्तुं शक्नुवन्ति। तत्रैव द्वितीय चरणस्य मतदानं नवम्बर मासस्य 20 दिनांके सुनिश्चितमस्ति। तत्रैव महाराष्ट्र राज्ये प्रथमचरणस्य विधानसभा निर्वाचनाय नामांकन प्रक्रिया प्रचलति। अनेक दलानां प्रत्याशिनः नामांकन पत्रं पूरितवन्तः। कांग्रेस दलं, शिवसेना दलं च स्वीयां द्वितीयां सूचीं प्रकाशितवन्तौ। कांग्रेस दलस्य महाराष्ट्रस्य पूर्व मन्त्रिणा वसंत पूर्के इत्यनेन रालेगांव विधानसभा क्षेत्रात्, सावनेर क्षेत्रात् अनुजा केदारः, अर्जुनी मोरगांव क्षेत्रात् दिलीप मंसोडः, जलना क्षेत्रात् कैलास गोरंटयालः, सायन कोलीपाड़ क्षेत्रात् गणेश यादवः च नामांकन पत्राणि पूरितवन्तः। मनिका बत्रा इत्येषा टेबल टेनिस प्रतिस्पर्धायां ऐतिह्यं विरचितम्, यतोहि सा विश्व टेबल टेनिस चैंपियनशिप प्रतिस्पर्धायां प्रागुपान्त्य चक्राय योग्यतां प्राप्य प्रथमा भारतीया क्रीडिका जाता। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः श्वः रविवासरे मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति। इति वार्ताः।